यो वाम परिष्मा सस्वत्तमादस्तमो वामिदं भजं पितं नाम सुभवं भवामहे चोदयतं सोन्द्रताप्यन्द्रतं धियमुत्पुरं धीरीरयतं ददुष्मसि यजतं भागं क्रेडतं नाश्विनासो मन्नकारम् अघवत्सुलस्कृतम् अमाजगश्चिद्भवतो जिवं भगो नाथोऽस्तिदभिदारापमस्य चित् अन्धस्य जिन्नादत्या प्रभ्रवाजने सोघासर्भिरजामजो भुवा तावान्नव्यापवासे करामहेयम् नासत्याश्रधर्यथा दधत् इयम् वा तृणतम् मे अश्विना पुत्रादेव पितरामह्यम् शिक्षतम् अनाभिरज्ञासरात्यामादिपुरातस्य अभिधस्तेरवस्पृतम् इवम् रतेन विमराज सिन्धुरन्यो हतःपुरमित्रस्य योषणाम् बद्रिमद्या गच्छतम् युवम् सुषूतम् चक्रतःपुरम् भजे इवम् विप्रस्य चरणामो वेजुषः पुनः कलेर कृणतम् युवद्वजाः युवम् वन्दनमृश्यदादुतो युवम् सद्यो विश्वरामेत वेकृतः इमम् देवम् रेषणा गुहाहितमुदैरयम् मवांसमश्विना युवमृदीशमुद सप्तमत्र जवो मन्वन्तम् चक्रतः सप्तभद्रये इवम् श्वेतम् वेदवेश्विना स्वम् नवभिर्वादीर्नवती च वादिनम् सर्कृत्यम् दधद्रावयत्स गम्भगन्नभ्यो हव्यम् मजो भुवम् कलम् राजानावदिते कुतश्चरणाम्भो अस्नोदिम् न गद्भयम् यमश्विना दुगवारुद्रवर्तने पुरो रसम् कृणुतः पत्न्या सह आतेन जातम् मना सोजवीयसारसं जम्वामृभवश्चक्रुरश्विना यस्य योगे दुहिता जायते दिव उभे अहानि सुदिने विवस्रतः तावत्तिर्यातम् जयुषा विपर्वतमपिम्बदम् सजवे धेनुमश्विना ऋकस्य चिद्वर्तिकामन्तरा स्याद्युवम् सजीभिर्ग्रसितामामुञ्चतम् एतम् वाम् सोमामश्विनावकर्मा तक्षामभृगभो नरथम् ज्ञामृक्षामयोषा नाम्नमर्जे नित्यम् न सूनम् तनयम् दधानाः।